इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। रक्षामन्त्री राजनाथसिंहः अवदत् यत् आत्मनिर्भर भारत इति आवाहनमस्ति सह निर्माणाय, सह विकासाय, सह नवान्वेषणाय च। श्रीसिंहः भारत जर्मनी देशयोः रक्षा औद्योगिक पर्यावरण व्यवस्थयोः मध्ये वर्धित सहयोगं प्राबल्येन प्रत्यपादयत्। जर्मनी देशस्य त्रिदिवसीयस्य प्रवासस्य प्रथमदिवसे रक्षा सुरक्षयोः विषये जर्मन संसदः स्थायि समितिं सम्बोधयन् श्रीसिंहः दृढतया उक्तवान् यत् अद्य जगता नूतन सुरक्षा विभीषिकाः सम्मुखीकृताः सन्ति। प्रौद्योगिकीय परिवर्तनेन स्थितिः अतीव संकीर्णा च अभवत्। सः दृढीकृतवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य दूरदर्शि नेतृत्वे भारतदेशः रक्षाक्षेत्रे अभूतपूर्व परिवर्तनस्य साक्षी भवन्नस्तीति। अद्य जम्मूकश्मीरप्रदेशे पहलगाम आततायिनः आक्रमणस्य कष्टास्पदा प्रथमवर्षपूर्तिः अस्ति। गतवर्षे षड्विंशतिः निर्दोषजनाः आधिक्येन च ये पर्यटकाः आसन् ते नृशंसतया क्रूरकर्माभिः आततायिभिः मारिताः। एतत् क्लैव्यकृत्यम् राष्ट्रम् उद्वेलयत्, सम्पूर्णे विश्वस्मिन् नेतृभिः च निन्दितापि। तमिलनाडुराज्ये श्वः राज्यस्य चतुस्त्रिंशदुत्तर द्विशत विधानसभाक्षेत्रेषु एकस्मिन्नेव चरणे मतदानं भविष्यति। अस्मिन् राज्ये सार्ध त्रिसप्तति लक्षोत्तर पञ्चकोटि प्रायः मतदातारः सन्तीति अस्माकं संवाददाता संसूचयत्। पश्चिमबंगालराज्यस्य च विधानसभानिर्वाचनस्य प्रथमचरणीय मतदानं श्वः षोडशमण्डलेषु द्विपञ्चाशदुत्तरैकशत आसनेषु भविष्यति। अस्मिन् चरणे अष्टसप्तत्युत्तर चतुर्दशशत प्रतिभागिनः भाग्यं परीक्षन्तः सन्ति। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् सः ईरान देशेन सह युद्धविरामस्य अनिश्चितकाल यावत् विस्तारं करिष्यति, येन द्वयोः देशयोः मध्ये युद्धस्य समाप्त्यर्थं शान्तिवार्तालापः अनुवर्तेत। अद्य प्रातः सप्ताहद्वयानां युद्धविरामस्य समाप्तिः निश्चिता आसीदिति कारणात् एषा घोषणा अभवत्, परन्तु सः अवदत् यत् यावत् तेहरान एकीकृतप्रस्तावं न प्रस्तौति तावत् ईरानस्य नौकाश्रयाणाम् अवरोधः अपि प्रवर्तते। ट्रूथ सोशियल इत्यस्मिन् प्रसारे ट्रम्पः उक्तवान् यत् सः पाकिस्तानस्य अनुरोधानुरूपम् एतत् कार्यं करोति, यतोहि सः ईरानदेशात् एकीकृतप्रस्तावस्य प्रतीक्षायाम् अस्ति, परन्तु अमेरिकादेशस्य सेना ईरानीय नौकाश्रयाणाम् अवरोधं प्रवर्तयिष्यति इति। मध्यप्रदेशे ह्यः पीथमपुर सेक्टर 3 इत्यत्र स्थिते अपशिष्टनिस्तारण संस्थाने विस्फोटनेन सह महती अग्निप्रकोपः अभवत्। घटनास्थले अग्निशमनयानानि आगतानि सन्ति, क्षेत्रं परितश्च आतंककोलाहलयोश्च वातावरणम् अजायत। सूचनास्ति यत् साम्प्रतं यावत् न कापि जनहानिः अजायदिति। त्रिशूल जनपदस्य मुण्डती कोड नगरे विस्फोटे मृतानां संख्या त्रयोदश यावत् वर्धिता। प्रदेशेऽस्मिन् सूचितासु एतादृशासु निकृष्टतमासु घटनासु घटनैषा अन्यतमास्ति। तमिलनाडुराज्यस्य बीरुधु नगरे रविवासरे विभागस्य क्षम्यताम् विस्फोटने पञ्चविंशति जनाः मृताः, दिनद्वयानन्तरं च एषा घटना अभवत्। अन्ते क्रीडा वार्तायाम्। आईपीएल इत्याख्यायां क्रिकेट क्रीडायां सनराइजर्स हैदराबाद दलेन गतरात्रौ हैदराबाद नगरस्य राजीव गांधी अन्ताराष्ट्रिय क्रीडांगणे दिल्ली कैपिटल्स इति दलं सप्तचत्वारिंशत् धावनांकैः पराजितम्। अद्य लखनऊ नगरस्य भारत रत्न श्री अटल बिहारी वाजपेयी एकाना क्रिकेट क्रीडांगणे लखनऊ सुपर जायंट्स इति दलं राजस्थान रॉयल्स इति दलेन सह सायं सार्ध सप्तवादनतः क्रीडिष्यति इति वार्ताः।